परमविदुषो यज्ञ सदृशी स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः अथ वाचः सर्वः स्वमतिपरिणामावधिगुणं ममापेश स्तोत्रे हरनिरपवादः परिकरः अतीतः पन्थानं तव च महिमा वाङ्मनसयोर्तदव्यावृत्यायं चकितमभिधत्ते श्रुतिरपि सतस्य स्तोतव्यः कतिविधगुणः कस्य विषयः पदे त्वर्वाचीने पतति न मनः कस्य न वचः मधुसीतावाचः परममृतं निर्मितवतः तव ब्रह्मन् किं वा अपि सुरगुरोर्विस्मयपदं मम त्वेतां वाणी गुणकथनपुण्येन भवतः पुनामीत्यर्थेऽस्मिन् पुरमथनबुद्धिर्व्यवसिता तवैश्वर्यं यत्तच् जगदुदयरक्षाप्रलयकृत् त्रयीवस्तुव्यस्तं तिसृषु गुणभिन्नासु तनुषु अभव्यानामस्मिन् वरदरमणीयामरमणी विहन्तुं जाक्रोशीं विदधत इहैके जडधियः किमीहः किङ्कायः स खलु किमुपायस्त्रिभुवनम् किमाधारो धाता सृजति किमुपादान इति च अतर्क्यैश्वर्यै त्वय्यनवसरदुस्थो हतधियः कुतः कोऽयं कांश्चिन् मुखरयति मोहाय जगतः अजन्मानो लोकाः किमवयवन्तोऽपि जगताम् अधिष्ठातारं किं भवविधिरनादृत्य भवति मनीषो वा कुर्यात् भुवनजनने कः परिकरो यतो मन्दा स्वां प्रत्यमरवरसंशेयत इमे साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च रुचीनां वैचित्र्याग्रजुकुटिलनानां पथजुषां नृणामेको गम्यः त्वमसि पयसामर्व एव महोक्षः खट्वाङ्गं परशुरजिनं भस्मफणिनः कपालं चेति यत् तव वरदतन्त्रोपकरणं सुरास्तां तां वृद्धिं दधति च भवद्भूप्रणिहिताम् न हि स्वात्मा रामं विषयमृगतृष्णा भ्रमयति ध्रुवं कश्चित् सर्वं सकलमपरस्पधुवमिदं परो द्रव्याधव्ये जगति गदति व्यस्तविषये समस्तेऽर्पेतस्मिन् पुरमथनतैर्विस्मित इव स्तुवन् जिह्येमि त्वां न खलु ननु दृष्टा भुखरता तवैश्वर्यं यत्नात् यदुपरि विरञ्चिर्हरिरथ परिच्छेत्तुं याता वनलमनलस्कन्धवपुषः ततो भक्ति श्रद्धा भरगुरुगृणद्भ्यां गिरिशयत् स्वयं तस्थेताभ्यां तव किमनुवृत्तिर्न फलति यत्नादापाद्य त्रिभुवनमवैरभ्यतिकरं दशास्यो यद्बाहूनभृतरण कण्डूपरवशान् शिरःपद्मश्रेणी रचितचरणाम्भोरुहबलेः स्थिरायास्त्वद्भक्ते त्रिपुरहरविस्पूजितमिदम् अमुष्यत्पत्सेवा समधिगतसारं भुजवनं बलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः अलभ्या पाताले व्यलसचलिताङ्गुष्टशिरसि प्रतिष्ठा त्वय्यासी ध्रुवमुपचितो मुह्यति खलः यद्वृद्धिं सुत्राम्णो वरद परमोच्चैरपि सतिम् अधश्चक्रे बाणः परिजनविधेय त्रिभुवनः न तच्चित्रं सम्यक् वरिवसितरित्वच्चरणयोर्न कस्याप्युन्नत्यै भवति शिरसस्त्वै यवनतिः अकाण्डब्रह्माण्ड क्षयचकितदेवासुरकृपा विधेयस्यासिद्यः त्रिनयनविषं संहृतवतः सकल्माषः कण्ठे तव न कुरुते न श्रियमहो विकारोऽपिश्लाघ्यो भुवनभयभङ्गव्यसनिनः असिद्धार्थानैव क्वचिदपि स देवासुरनरे निवर्तन्ते नित्यं जगति जैनो यस्य विशिखाः स पश्यन्नीषत्वाम् इतरसुरसाधारणमभूत् स्मरः स्मर्तव्यात्मा न हि वशिशुपथ्यः परिभवः महोपादाघातात् व्रजति सहसा संशयपदं पदं विष्णोर्भ्राम्यत् भुजपरिघरुग्रग्रहगणम् मुहूर्द्यौदौस्थ्यं यात् यनिभृतजटा ताडितकटा जगद्रक्षायै त्वम् नटसि ननु वामैव विभुता वियद्व्यापीतारागणगुणितफेनोद्भवरुचिः प्रवाहो वाराम्यः कृशतलघुद्रष्टः शिरसि ते जगद्वीपाकारं जलधिवलयं तेन कृतिमे यनेनैवोन्नेयं द्रुतमहिमदिव्यं तव वपुः रथ श्रोणीयन्तां शतधृतिरगेन्द्रो धनुरथो रथाङ्गे चन्द्रोकौ रथचरणपाणि शरयति दिधक्षोते कोऽयं त्रिपुरतृणमाडम्बरविधिर्विधेयै क्रीडन्त्यो न खलु परतन्त्रः प्रभुधियः हरिस्ते साहस्रम् कमलबलिमाधाय पदयो यदेको ने तस्मिन् निजमुदहरन्नेत्रकमलम् गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषा त्रयाणां रक्षायै त्रिपुरहर जागाति जगतां क्रतौ सुप्ते जाग्रन् त्वमसि फलयोगे क्रतुमतां ककर्म प्रध्वस्तं फलति पुरुषाराधनमृते अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदान प्रतिभुवम् श्रुतौ श्रद्धां बद्ध्वा दृढपरिकरः कर्म सुजनः क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृताम् ऋषीणामात्विज्यम् शरणदसदस्यः सुरगणः क्रतुभेषत्पत्तः क्रतुफलविधानव्यसनिनो ध्रुवं कर्तुः श्रद्धा विदुरमभिचाराय हि मखा प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरम् गतं रोहित भूतां प्रिरमयिषु मृष्यस्य वपुषा धनुष्पाणिर्यातं दिवमपि सपत्राकृतममुं क्रसन्तं तेद्यापि त्यजति न मृगव्याधरवसः स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत् पुरप्लुष्टं दृष्ट्वा पुरमथनपुष्पायुधमपि यदि स्त्रैणं देवी यमनिरतदेहार्धघटना दवैति त्वामद्धा बतवरदमुग्धा युवतय शमशाने क्रीडा स्मरहर पिशाचा सहचरा चिता भस्मालेपः स्रगपि नृकरोटी परिकरः अमङ्गल्यं शीलं तव भवतु नामैवमखिलं तथापि स्मर्तॄणाम् वरद परमं मङ्गलमसि मनः प्रत्यक्चित्ते सविधमवधायातमरुतः प्रह्यश्चद्रोमाणः प्रमदसलिलोत्सङ्गितदृशः यदा लोक्याह्लादं हृद इव निमज्जामृतमये दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान् त्वमर्कस्त्वं सोमः त्वमसि पवनस्त्वं हुतवः त्वमापस्त्वं योमत् वमुधरणिरात्मा त्वमिति च परिच्छिन्नामेवं त्वयि परिणता विभ्रतुगिरं न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि त्रयीन्द्रिस्त्रौ वृत्ति स्त्रिभुवनमथोतीनपि सुरा अकाराद्यैर्वर्णैस्त्रिभिरभिदधत् तीन विकृति तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः समस्तं व्यस्तं त्वाम् शरणदगृणात्योमिति पदम् भवः शर्वो रुद्रः पशुपतिरथोग्रः सह महास्तथा भीमेशाना द्वितीयदभिधानाष्टकमिदम् अमुष्मिन् प्रत्येकम् प्रविचरति देवश्रुतिरपि प्रियायास्मै धाम्ने प्रविहितनमस्योऽस्मि भवते नमो नेदिष्ठाय प्रियदवदविष्ठाय च नमः नमः क्षोदिष्ठाय स्मरहरमहिष्ठाय च नमः नमो वर्षिष्ठाय त्रिनयनयविष्ठाय च नमो नमः सर्वस्मै ते तदिदमिति सर्वाय च नमः बहुलर्जसे विश्वोत्पत्तौ भवाय नमो नमः प्रबलतमसे तत्सहारे हराय नमो सुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः कृशपरिणतिचेतः क्लेशवश्यं कचेरम् कच तव गुणसि मोल्लङ्घिनि शश्वद्रढ्भिः इति चकितममन्ये कृत्यमां भक्तिराधा वरदचरणयोस्ते वाक्यपुष्पोपहारम् असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे सुरतरुवरशाखालेखिनीं पत्रमूर्वे लिखति यदि गृहीत्वा शारदा सर्वकालम् तदपि तव गुणानामीश पारं न याति असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौलेः ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य सकलगणवरिष्ठः पुष्पदन्ताभिधानो रुचिरमलदुवृत्तैः स्तोत्र नेतच्चकार अहरहरनवद्यं भूजटे स्तोत्रमेतत् पठति परमभक्त्या शुद्धचित्त पुमान्यः स भवति शिवलोके रुद्रतुल्यस्तथात्र प्रचुरतर धनायुः पुत्रवान् कीर्तिमांश्च महेशान्नापरो देवो महिम्नो नापरास्तुतिः अघोरान्नापरो मन्त्रो नास्ति तत्त्वगुरौ परम् दीक्षादानं तपस्तीर्थं ज्ञानं योगादिकः क्रियाः महिम्न तव पाठस्य कलां नार्हन्ति षोडशी कुसुमदशन नामा सर्वगन्धर्वराजः शिशुशशिधर मौलेर्देव देवस्य दास स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात् स्तवनमिदमकाशी दिव्यदिव्यं महिम्नः सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं पठति यदि मनुष्यः प्राञ्जलिर्नान्यचेताः व्रजति शिवसमीपं किन्नरैः स्तूयमानः स्तवनमिदममोघं पुष्पदन्तप्रणीतम् आसमाप्तमिदं स्तोत्रम् पुण्यं गन्धर्वभाषितम् अनौपम्यं मनोहारी शिवमीश्वरवर्णनम् इत्येषा वाङ्मयी पूजा श्रीमच्छङ्करपादयोः अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर यादृशोऽसि महादेव तादृशाय नमो नमः एककालं द्विकालं वा त्रिकालं यः पठेन्नरः सर्वपापविनिर्मुक्तः शिवलोके महोयते श्रीपुष्पदन्तमुख पङ्कजनिर्गतेन स्तोत्रेण किल्बिषहरेण हरतिहेण कण्ठस्थितेन पठितेन समाहितेन सुपीडितो भवति भूतपतिर्महेशः